ಸರಿ, ನಮಸ್ಕಾರ. ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯ ಅನಂತ ಪುಲ್ಲಿಂಗ ಪ್ರಕರಣೆ ನಮಃಕಾಶಃ ಸೆಪ್ಟೆಂಬರ್ ಮಾಸಸ್ಯ ತ್ರಯೋದಶ ದಿನಾಂಕಃ ಏನಾಕ್ಷರ ಸಮಾಂ ನಾನಿ ಗಮನೇಶ್ವರಾತ್ ಸುಖಂ ವ್ಯಾಕರಣಂ ರೋಕ್ತಂ ತಸ್ಮೈ ವಾಣಿಯೇ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರ ರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತಿ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ. ನಕಾರಾಂತೇಷು ಪುಲ್ಲಿಂಗೇಷು ಸ್ಮಃ. ಇನ್ಹನ್ ಪೂಷಾವ್ಯಂನಾಂ ಶೌ ಇತಿ ಸೂತ್ರಸ್ಯ ವಿಷಯಂ ಅಧೀತಂ. ಏತೇಷಾಂ ಚತುರ್ಣಾಂ ಇನ್ನಂತಾನಾಂ ಹನ್ ಇತ್ಯಂತಸ್ಯ ಪ್ರಾತಿಪದಿಕಸ್ಯ ಪೂಷ ಅರ್ಯಮನ್ ಪೂಷನ್ ಅರ್ಯಮನ್ ಇತ್ಯೇತೇಷಾಂ ಚ ಶಿ ಇತ್ಯೇತಸ್ಮಿನ್ ಪರೇ ಏವ ಉಪಧಾದೀರ್ಘಃ ಭವತಿ. ಪುನಶ್ಚ ಸೌಚ ಇತ್ಯನೇನ ಸುಪ್ರತ್ಯಯೇ ಪರೇ ಉಪಧಾದೀರ್ಘಃ ಭವತಿ ಅನ್ಯೇಷು ಸರ್ವನಾಮಸ್ಥಾನೇಷು ನ ಇತ್ಯಧೀತಂ. ತಸ್ಯ ಉದಾಹರಣತ್ವೇನ ಇನ್ ಇತ್ಯಸ್ಯ ಉದಾಹರಣಂ ಇನ್ನಂತಂ ಪ್ರಾತಿಪದಿಕಂ ಭವತಿ ಶಾಂಗಿನ್ ಗುಣಿನ್ ದಂಡಿನ್ ಬಹೂನಿ ಸರ್ತಿ. ಏವಂ ಇನ್ ಗ್ರಹಣೆ ಅನಿನಸ್ಮನ್ ಗ್ರಹಣಾನಿ ಅರ್ಥವತಾ ಚ ಅನರ್ಥಕೇನ ಚ ತದಂತ ವಿಧಿಂ ಪ್ರಯೋಜಯಂತಿ ಇತಿ ಪರಿಭಾಷೆಯ. ನ ಕೇವಲಂ ಇನ್ ಇತ್ಯಸ್ಯ ಕಿಂತು ವಿನ್ ಪ್ರತ್ಯಯಾಂತಾನಾಮಪಿ ಅಯಂ ನಿಯಮಃ ಭವತ್ಯೇವ. ತೇನ ಯಶಸ್ವಿನ್ ಇತ್ಯಸ್ಯಾಪಿ ತಥೈವ ಯಶಸ್ವೀ ಯಶಸ್ವಿನೌ ಯಶಸ್ವಿನಃ ಇತ್ಯಾದೀನಿ ರೂಪಾಣಿ. ಹನ್ ಇತ್ಯಸ್ಯ ಉದಾಹರಣಂ ವೃತ್ರಹನ್ ಶಬ್ದಃ ಪೂಷನ್ ಅರ್ಯಮನ್ ಇತ್ಯೇತೇ ಶಬ್ದಾಃ ಅಧೀತಾಃ. ಅಗ್ರೆ ನಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗಃ ಮಘವನ್ ಶಬ್ದಃ. ಅಯಂ ಔಣಾದಿಕ ಶಬ್ದಃ. ಸೋ ಉಣಾದಿ ಪ್ರತ್ಯಯ ನಿಷ್ಪನ್ನಃ ಶ್ವನ್ನುಕ್ಷನ್ ಪೂಷನ್ ಇತ್ಯಾದಿ ಇತ್ಯಾದಿ ಬೃಹತ್ ಸೂತ್ರಮಸ್ತಿ ಅಂತೆ ಮಘವನ್ ಇತ್ಯಪಿ ಅಸ್ತಿ. ಉಣಾದಿ ಸೂತ್ರೇಣ ನಿಪಾತಿತಃ. ಸೋ ನಿಪಾತನಂ ಸಿದ್ಧ ಪ್ರಕ್ರಿಯಸ್ಯ ನಿರ್ದೇಶಃ ನಿಪಾತನಂ ಉಚ್ಯತೆ. ಯಥಾ ಅತ್ರ ದ್ರಷ್ಟುಂ ಶಕ್ನುವಂತಿ ಶ್ವನ್ ಉಕ್ಷನ್ ಪೂಷನ್ ಇತ್ಯಾದಿ ರೀತಿಯ ಸಿದ್ಧಾನಿ ರೂಪಾಣಿ ದೀಯಂತೆ. ಸೊ ವಾಟ್ ಇಸ್ ದ ಡಿಫರೆನ್ಸ್ ಬಿಟ್ವೀನ್ ನಿಪಾತನ ಅಂಡ್ ಅ ಜನರಲ್ ಸೂತ್ರ? ಸೇ ಫಾರ್ ಎಕ್ಸಾಂಪಲ್ ಉಣಾದಿ ಸೂತ್ರಂ ಸಾಮಾನ್ಯತಃ ಕಿಂ ಭವತಿ ಲಕ್ಷೇರ್ ಮುಚ್ಚ ಇತಿ ಉಚ್ಯತೆ ಚೇತ್ ಲಕ್ಷಧಾತುಃ ಅಸ್ತಿ ಲಕ್ಷಧಾತೋಃ ಮುಡಾಗಮಃ ಈ ಪ್ರತ್ಯಯಃ ಭವತಿ ಅಂತಿಮ ಶಬ್ದಸ್ತು ಲಕ್ಷ್ಮೀಃ. ಸೂತ್ರೇ ತು ಕಿಂ ಪ್ರಕೃತಿಃ ಕಃ ಪ್ರತ್ಯಯಃ ಇತಿ ದೀಯತೆ. ಅಗ್ರೆ ಪ್ರಕ್ರಿಯಾಂ ಪ್ರಕ್ರಿಯಾನುಸಾರಂ ಕಿಂ ರೂಪಂ ಭವತಿ ಇತಿ ಅಸ್ಮಾಭಿಃ ದ್ರಷ್ಟವ್ಯಂ ಭವತಿ. ಯಥಾ ಲಕ್ಷ್ಮೀ ಇತಿ ಭವತಿ ಕಿಂತು ಅತ್ರ ತಥಾ ನಾಸ್ತಿ. ಕಃ ಪ್ರಕೃತಿಃ ಕಾ ಪ್ರಕೃತಿಃ ಕಃ ಪ್ರತ್ಯಯಃ ಇತಿ ನ ನಿರ್ದಿಷ್ಟಃ ಕೇವಲಂ ಸಿದ್ಧಂ ರೂಪಂ ದತ್ತಂ. ಕಿಮರ್ಥಂ ತಥಾ ನಿಪಾತನಂ ಕ್ರಿಯತೆ ಇತಿ ಚೇತ್ ವಾಟ್ ಹ್ಯಾಪನ್ಸ್ ಜನರಲಿ ವೆನ್ ವಿ ಹ್ಯಾವ್ ಅ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ದ ರೂಲ್ಸ್ ಫಾರ್ ಜಾಯಿನಿಂಗ್ ದೋಸ್ ಟು ವಿಲ್ ಆಲ್ರೆಡಿ ಬಿ ದೇರ್. ಸೊ ವಿ ಕ್ಯಾನ್ ಯೂಸ್ ದೋಸ್ ರೂಲ್ಸ್ ಟು ಗೆಟ್ ದ ಡಿಸೈರ್ಡ್ ಫಾರ್ಮ್. ಕದಾಚಿತ್ ಕಿಂ ಭವತಿ ಪ್ರಕೃತಿ ಪ್ರಕೃತೌ ಪ್ರತ್ಯಯೇಸ ನಿರ್ದಿಷ್ಟೆ ಅಪಿ ಮಧ್ಯೆ ಪ್ರಕ್ರಿಯಾ ನಿರ್ವಾಹಾರ್ಥಂ ಸೂತ್ರಾಣಿ ನ ಭವಂತಿ. ಟು ಗೆಟ್ ದ ಡಿಸೈರ್ಡ್ ಫಾರ್ಮ್ ವಿ ವಿಲ್ ನಾಟ್ ಬಿ ಏಬಲ್ ಟು ಯೂಸಿಂಗ್ ದ ಜನರಲ್ ಸೂತ್ರಸ್. ಸೊ ಅಗೇನ್ ಇಟ್ ವಿಲ್ ನೀಡ್ ಟೂ ಆರ್ ತ್ರೀ ಸೂತ್ರಸ್ ಟು ಗೆಟ್ ಟು ದಟ್ ಫಾರ್ಮ್. ಸೊ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ದಟ್ ವಾಟ್ ಪಾಣಿನಿ ಡಸ್ ಆರ್ ವಾಟ್ ದ ವೈಯಾಕರಣ ಡಸ್ ಹಿ ಗಿವ್ಸ್ ದ ಫೈನಲ್ ಫಾರ್ಮ್. ಹಿ ಸೇಸ್ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ಯೋಜಯಿತ್ವ ವಾಟ್ ಎವರ್ ಸ್ಟೆಪ್ಸ್ ಫಾಲ್ ಬ್ಲಾಂಕ್ ಇನ್ ಬಿಟ್ವೀನ್ ವಿಚ್ ಕೆನಾಟ್ ಬಿ ಕವರ್ಡ್ ಬೈ ಅ ಜನರಲ್ ಸೂತ್ರ ಕ್ಯಾನ್ ಬಿ ಡನ್ ಬೈ ದ ನಿಪಾತನ. ಎವ್ರಿಥಿಂಗ್ ವಿಲ್ ಹ್ಯಾಪನ್ ವಿತ್ ದ ಸೇಮ್ ಸೂತ್ರ. ಫಾರ್ ಎಕ್ಸಾಂಪಲ್ ಅತ್ರ ಮಘವನ್ ಇತ್ಯಸ್ತಿ ಮಹಾ ಮಹಧಾತೋಃ ಮತ್ತು ಪ್ರತ್ಯಯಃ ಇತಿ ಚಿಂತಯಾಮಃ. ಮಧ್ಯೆ ಕಿಂ ಕಿಂ ಕಾರ್ಯಂ ಭವೇತ್ ಕಸ್ಯ ಕಸ್ಯ ಚ ಸೂತ್ರಂ ನಾಸ್ತಿ. ಹಕಾರಸ್ಯ ಸ್ಥಾನೆ ಕುತ್ವಂ ವಾ ಮಕಾರಸ್ಯ ವಕಾರೋ ವಾ ಯದ್ಯದ್ ಯಸ್ಯಸ್ಯ ಅನ್ಯತ್ ಸೂತ್ರಂ ನಾಸ್ತಿ ತತ್ಸರ್ವಂ ಅನೇನೈವ ಸೂತ್ರೇಣ ನಿರ್ವಾಹ್ಯತೆ. ಸೊ ಬೇಸಿಕಲಿ ಟು ಗೆಟ್ ದಟ್ ಫೈನಲ್ ಫಾರ್ಮ್ ವಾಟ್ ಎವರ್ ಯು ನೀಡ್ ದಟ್ ಹೆಲ್ಪ್ ಯು ಕ್ಯಾನ್ ಗೆಟ್ ಫ್ರಮ್ ದಿಸ್ ಸೂತ್ರ. ಸೊ ದೋಸ್ ಆರ್ ದ ಕೈಂಡ್ ಆಫ್ ನಿಪಾತನ. ತಸ್ಯೈವ ನಿಪಾತನಂ ಇತಿ ನಾಮ. ಪಾಣಿನಿನಾಪಿ ಕದಾಚಿತ್ ನಿಪಾತನಂ ಕ್ರಿಯತೆ ಉಣಾದಿ ಸೂತ್ರೇಷ್ವಪಿ ನಿಪಾತನಂ ಇತ್ಯಸ್ತಿ. ಅಯಂ ಮಘವನ್ ಇತಿ ಶಬ್ದಃ ಇಂದ್ರಪರ್ಯಾಯಃ. ಮಘವ ಇತ್ಯುಕ್ತೆ ಇಂದ್ರಃ ಇತ್ಯರ್ಥಃ. ಇದಾನಿಂ ಕಿಂ ಭವತಿ ಮಘವನ್ ಶಬ್ದಸ್ಯ ಇತಿ ಚೇತ್ ಮಘವಾಬಹುಲಂ ಇತಿ ವಿಶಿಷ್ಟಂ ಸೂತ್ರಂ. ಈಗ द्वे पदे स्तः मभवा इत्येकं बहुलम् इत्यपरम्। पर्वणस्तृ असावनयः इति सूत्रात् तृ इति अनुवर्तते। मघवन्न शब्दस्य वा तृ इति अन्तादेशः स्यात्। मघवा इति मघवन् इत्यस्य प्रथमा एकवचनान्तं, यथा राजन् इत्यस्य राजा इति भवति तथा मघवन् इत्यस्य मघवा, तस्य तृ इति अन्तादेशो भवति इति उच्यते। तृ विल् बि एन् आदेश, तृ इति, तृ इत्यत्र ऋकारः इत्सङ्गकः अथवा पकारः अन्तादेशो भवति इत्यर्थः। अलोन्त्यस्य इत्यनेन तृ इति एकाल् भवति, अतः अन्तादेशः मघवन् इति नकारस्य स्थाने तकारः आदेशो भवति इत्यर्थः। मघवन् इत्यस्ति मघवत् इति जायते, मघवाबहुलम् इत्यनेन तृ इत्यादेशे कृते। अस्य आदेशस्य कोऽपि नियमः नास्ति, अर्थात् सौ परे, सर्वनामस्थाने परे, विभक्तौ परे किमपि नास्ति, केवलं प्रातिपदिकस्यैव साक्षात् आदेशः भवति। मकारान्तस्य प्रातिपदिकस्य स्थाने तकारान्तं प्रातिपदिकं भवति विकल्पेन, बहुलग्रहणात् विकल्पेन इत्युच्यते। तर्हि किं भवति, तकारान्तस्य एकं रूपं भवति नकारान्तस्य, दिस् इस् नाट् मकारान्तस्य, सोरि, मकारान्तस्य अपरं रूपं भवति। मघवत् इति तकारान्तस्य एवं मघवन् इति नकारान्तस्य भिन्ने रूपे सर्वासु विभक्तिषु, सो वेर् एवर् यु गो, नाट् जस्ट् इन् विभक्ति, वेदर् यु गो टु तद्धित आर् वेदर् यु गो टु स्त्री प्रत्यय, सर्वत्र रूपद्वयं भवति, तकारान्तस्य एकं रूपं नकारान्तस्य अपरं रूपम् इति स्थितिः। तर्हि आदौ तकारान्तस्य तृ आदेशपक्षे, अर्थात् तकारान्तस्य कानि रूपाणि इति पश्यामः। मघवन् इत्यस्ति मघवाबहुलम् इति त्रादेशे मघवत् इति जातम्। मघवत् सुप्रत्ययः क्रियते। गिरचां सर्वनामस्थाने अधातोः इति सूत्रम्। त्रीणि पदानि सन्ति, उगित् अचां सर्वनामस्थाने अधातोः इति छेदः, इदितो नुम् धातोः इति सूत्रात् नुम् इति अनुवर्तते, तेषां नुम् इत्यागमो भवति इत्यर्थः। अधातोः उगितः नलोपिनः अंसतेश्च नुमागमः स्यात् सर्वनामस्थाने परे इति सूत्रार्थः। सर्वनामस्थाने इति सूत्रे एव अस्ति, नुम् इत्यपि अस्ति। उगिदचाम् इत्यस्य अधातोः, उगित् इति अधातोः उगितः, धातुभिन्नं भवेत् उगित्, उगित् इत्यस्य उक् इत् यस्य सः उगित्, उक् इति प्रत्याहारः, अ इ उण् इत्यारभ्य ऋलुक् उ ऋल्, एतेषु त्रिषु एकः वर्णः यस्मिन् इत्सम्यकः भवति सः उगित्, अधातोः उगितः। सो धातुभिन्नम् उगिद्व भवति चेत् नलोपिनः अञ्चतेश्च, अचाम् इत्यनेन अच् इति प्रत्याहारः नास्ति, उगिदचाम् इस् नाट् फार् स्वरास्, इट् हेस् नथिङ्ग् टु डू वित् स्वरास्, देर् इस् अ धातु विच् इस् काल्ड् अञ्चु, अञ्चु गतिपूजनयोः इति धातुः अस्ति, तस्य ञकारस्य लोपे कृते अच् इति जायते। सो अधातोः उगितः नलोपिनः अञ्चतेश्च नुमागमस्य सर्वनामस्थाने परे उच्यते। इदानीम् अत्र तृ इत्यादेशः कृतः मघवन् शब्दस्य, तत्र ऋकारः इत् इत्यपि उक्तम्, तेन अयम् उगित् अधातुः उगित् च। नुमागमः करणीयः, कुत्र भवेद् नुमागमः, निरचोन्त्यात् परः, अन्त्यादृतः परत्वेन नकारागमः क्रियते। मघवान् मघवत् स् इत्यस्ति, मघव न सु सु उगिरचां सर्वनामस्थाने धातोः अकारात् परत्वेन नुमागमः। मघव न सु सु मतम् हल्याभ्यो दीर्घात् इत्यनेन सु लोपे मघवन् तु। संयोगान्तस्य लोपः इत्यनेन तकारस्यापि लोपः मघवन् इति जातम्। सर्वावस्थाने चासं बुद्धौ इत्यनेन उपधा दीर्घे मघवान् इति भवति। तथा राजन् इत्यत्र दीर्घे राजान् एवं सर्वनामस्थाने च असम्बुद्धौ इत्यनेन मघवान् इति दीर्घः भवति। अत्र प्रश्नः, संयोगान्तस्य लोपः त्रिपाद्यामस्ति सूत्रम्, अष्टमाध्यायस्य द्वितीयपादे अस्ति संयोगान्तस्य लोपः इति सूत्रम्, सर्वनामस्थाने च असम्बुद्धौ इति सूत्रं तु षष्ठाध्याये अस्ति। पूर्वत्र सिद्धम् इत्यनेन संयोगान्तस्य लोपः इति लोपः असिद्धः, संयोगान्तस्य लोपः असिद्धः, अत्र तकारः अस्ति। तकारः अस्ति चेत् नान्तस्य उपधायाः इति उच्यते, अत्र नान्तत्वं नास्ति। कथं दीर्घः इति प्रश्नः। संयोगान्तस्य लोपः इस् असिद्ध टु सर्वनामस्थाने च असम्बुद्धौ, सो अकार्डिङ्ग्लि सर्वनामस्थाने च असम्बुद्धौ शुड् सी द तकार। If there is a takara, this will not apply, since it is not nakaranta. So how do we do it? Iha dirghe kartavye sanyoganta lopasya asiddhatvam na bhavati. So asiddhatvam nasti. Katham nasti iti jnayate bahulat grahanat iti uchyate. Maghava bahulam iti sutre bahulam iti grihyate tena asiddhatvam na bhavati. कथम इति चेत् बहुला इज अ वेरी स्पेशल काइंड ऑफ अ निर्देश, जस्ट लाइक व्हेन आई वाज टॉकिंग अबाउट निपातन नाउ, वेर यद्यद् आवश्यकं तत्सर्वं तेन निपातन सूत्रेण साधयितुं शक्यते। व्हाट एवर यू नीड व्हिच इज नॉट पॉसिबल बाय द अदर सूत्रस, यू कैन ट्वीक थिंग्स विद निपातन। बहुला ग्रहण इज वेरी सिमिलर टू इट। सामान्यतः विकल्प साधनार्थं वा विभाषा अन्यतरस्याम् इत्येतानि पदानि उपयुज्यन्ते। They are the words which indicate option, right? Va or vibhasha or unyatarasya. In all those cases, it is a plain vikalpa. Optionally, this thing will apply or this thing will not. Kintu bahulagrahanasya vishishtani prayojanani bhavanti. Wherever Panini uses bahulam, there will be something else. I mean, it is a vikalpa. Bahulam ityasya api va ityeva arthaha dattaha sutrarthepi tathaivasti. Maghavan shabdasya va tr ityadesha syat. Kintu विकल्पेन सह अन्यान्यपि प्रयोजनानि भवन्ति बहुलग्रहणस्य। तदेव बालमनोरमायाम् इयं कारिका दत्ता, क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव शिष्टप्रयोगान् अनुसृत्य लोके विज्ञेयमेतद् बहुलग्रहेतु। सो बहुलग्रहणे कृते क्वचित् प्रवृत्तिः, केषुचित् स्थलेषु नित्यं प्रवृत्तिः भवति, क्वचिद् अप्रवृत्तिः, केषुचित् स्थलेषु प्रवृत्तिरेव न स्यात्, क्वचिद् विभाषा, केषुचित् विषयेषु विकल्पः स्यात्, क्वचित् अन्यदेव, अन्यदपि कार्यं बहुलग्रहणात् साधयितुं शक्यते, यथा अत्र असिद्धत्वं न भवति इति उच्यते। कथं निर्णयः इति चेत् शिष्टप्रयोगान् अनुसृत्य, शिष्टैः प्रयुक्तानि यानि पदानि तदनुगुणेन लक्ष्यानुगुणं लोके विज्ञेयम् ज्ञातव्यं भवति बहुलग्रहे, बहुलग्रहणे कर्तव्ये एवं भवति। अतः अत्रापि बहुलग्रहणस्य किं प्रयोजनम् इति चेत् त्रि आदेशस्य विकल्पः प्रयोजनम् इत्येकम्, अन्यदपि त्रि आदेशे कृते रूपे संयोगान्तस्य लोपः इत्यस्य असिद्धत्वं वारयित्वा सर्वनामस्थाने च असम्बुद्धौ इत्यनेन दीर्घसाधनमपि बहुलग्रहणात् भवति। तेन दीर्घे कर्तव्ये संयोगान्तस्य लोपस्य असिद्धत्वं न भवति बहुलग्रहणात् इति उच्यते। सो दट् इस् अबौट् मघवान्। सो यु नोटिस् दट् यु आर् डूयिङ्ग् संथिङ्ग् लैक् भगवान्, भगवत् इति तकारान्तं प्रातिपदिकं, यथा भगवान् भवति तथैव मघवान्, तकारान्तस्य प्रथमाभक्तवेकवचने मघवान् इति रूपम्। रिमेम्बर् वि आर् इन् द तृ आदेशपक्ष, यदा तृ आदेशः कृतः तदा कानि रूपाणि इति ज्ञायते। तथा च श्वन्नुक्षन् इति निपातनात् मघशब्दात् मतुपा च भाषायामपि शब्दद्वयसिद्धिम् आश्रित्य एतत् सूत्रं प्रत्याख्यातम् आकरे। दीक्षितवसोसेत् एतत् सूत्रं मघवाबहुलम् इति सूत्रम् आकरे प्रत्याख्यातम्, इट् हेस् बीन् रिमूव्ड् इन् आकर। आकर आल्वेस् मीन्स् भाष्य, भाष्यकारेण इदं सूत्रं प्रत्याख्यातम्। कथम प्रत्याख्यातम्? प्रत्याख्यान मीन्स इट इज नॉट सिंपली ही रिजेक्ट्स द सूत्र फॉर द रिमूवल। इवन आफ्टर द रिमूवल ऑफ द सूत्र वी शुड बी एबल टू गेट वॉट इज द एंड डिरेवेटिव ऑफ द सूत्र। तदैव सूत्र से प्रत्याख्यान कर्तुं शक्यते। केवलम इदं सूत्रं मास्तु इति न, सूत्रस्य सूत्रं विनापि यत् कार्यं सूत्रेण इष्यते तत् साध्यते इत्यर्थः सूत्रस्य प्रत्याख्यानस्य सर्वदा। ऑलवेज सूत्र हैज बीन रिमूव्ड बाय द भाष्यकार मीन्स देयर आर अदर मीन्स ऑफ अचीविंग व्हाट द सूत्र हैज सेट आउट टू डू। सो यू डोंट नीड अ सेपरेट सूत्र फॉर दिस। अन्येनापि मार्गेण कर्तुं शक्यते इति अर्थः। अत्र कथम् इति चेत् नौ अनेन सूत्रेण किं क्रियते? अकारान्तं प्रातिध्वनिकं विद्यते मघवान् इति, मघवन् इति उणादिसूत्रेण निपातितः नकारान्तशब्दः अस्ति। तस्य सकारान्तरूपाण्यपि इष्यन्ते, अतः तृ इत्यादेशः क्रियते। तदेव अस्य सूत्रस्य कार्यम्। सो भाष्यकारः किं वदति? श्वन्नुक्षन् इति निपातनात् नकारान्तं शब्दं सिद्ध्यति उणादिसूत्रेण। श्वन्नुक्षन् इति आदौ यः दर्शितः योगः तेन नकारान्तः मघवन् शब्दः सिद्ध्यति। नकारान्तत्वं कथम् इति चेत् मघ शब्दात् मसुपाच मघः इति पदमस्ति धनमाचि। सो मघः अस्य अस्ति, धनम् अस्य अस्ति, यथा धनवान् इति भवति तथा मघः अस्य अस्ति इति मघवान् इत्यपि भवति। मसु प्रत्यये इत्युक्ते सकारान्तः मघवत् शब्दः सिद्ध्यति। सो देर् आर् टु सेपरेट् शब्दास् इस् वाट् भाष्यकारः। There is one nakaranta which is derived by the unadi sutra, and there is one sakaranta which is derived by adding matup to magha. So for the nakaranta word you will have nakaranta forms, sakaranta pratipadika sakaranta ni rupani bhavati. So bhashayam api, it is na kevalam chandasi. So if the word were only in chandas it would have been easy. दृष्टानुविधिश्चन्दसि भवति। ऑलवेज इन छंदस सी व्हाट एवर इज द प्रयोग सीन अकॉर्डिंग टू दैट वी गो। भाषायामपि लोकभाषायामपि शब्दद्वय सिद्धिम् आश्रित्य शब्दद्वयम् सिद्ध्यति। सो इवन विथाउट द सूत्र वी हैव वन नकारांत प्रातिपदिक वन सकारांत, सो वी कैन गेट टू फॉर्म्स। तदाश्रित्य एतत् सूत्रं प्रत्याख्यातम् आकरे। दिस सूत्र हैज बीन रिमूव्ड इन आकर इन द भाष्य। अतः अनेन सूत्रेण नकारान्तस्य प्रादेशं विधाय रूपद्वयं न साधनीयम्। मीन्स वी डू नॉट नीड दिस सूत्र टू डू अ तकारादेश फॉर अ नकारांत वर्ड। दिस सूत्र इज नॉट रिक्वायर्ड इति भाष्यकारस्य मते। सविद्यक्षिति निःशंको मुखेषु मघवान् असौ इति भट्टिः शिष्ट प्रयोगं दर्शयति। कुत्र अस्ति शिष्ट प्रयोगः? सकारान्तस्यापि भवेत् मकारान्तस्यापि भवेत्। सकारान्तस्य प्रयोगं दर्शयति सविद्यक्षिति निःशङ्को मखेषु मघवान् असौ। भट्टिः रावणमध्ये अस्ति। मखेषु नाम यज्ञेषु, मघवान् असौ, मघवान् असौ इन्द्रः निःशङ्कः हविः दर्शति, हविः स्वीकरोति भक्षयति इत्यर्थः। तत्र मघवान् इति भट्टिना प्रयुक्तम्। So the takaranta form is also in use. It is adhanartha idam prayogam amum prayogam dashayati vichita dashayati vichita. Okay, so that is about the prathama vibhakti ekasma maghavan. So how Panini does it is he takes, there is one word maghavan, it is nakaranta, he makes it, he gives it an optional takaranta form and gets two forms. भाष्यकार सेस् नो नीड् टु डू दट् लेट् द नकारान्त बि सेपरेट्। सकारान्तस्य मतुप् प्रत्ययस्य करणेन कर्तुं शक्यते। बट् बोत् आर् देर्, सो दट् इस् द पायिण्ट्। बोत् अकार्डिङ्ग् टु पाणिनि एण्ड् अकार्डिङ्ग् टु भाष्यकार बोत् फार्म्स् आर् देर्। सकारान्तरूपाण्यपि सन्ति, सकारान्तानि रूपाण्यपि सन्ति, किन्तु कथं तेषां सिद्धिः इत्यत्रैव भेदः। पाणिनि मते मघवाबहुलम् इति सकारान्तस्य तृ इत्यादेशेन तकारान्तानि रूपाणि सिद्ध्यन्ति। भाष्यकारमते नकारान्तरूपं भिन्नं, सकारान्तं प्रातिपदिकं मघशब्दात् मतुप्रत्ययकरणेन सिद्ध्यति।
also, and you should also see, he says bhashayam, it is in bhasha, because in Veda this will not work. There would be a swara difference, whether you are doing it nipatana or doing adding magha to matu, there would be a swara difference. So that is why this technique of getting two words will not work in the Veda. Bhashayam se evam bhavati. Idani maghavan isyasmi. Maghavat mahavabhulam ityanena sruvadeshah. Maghavat au. Punah uvidacham sarvanamasthane adhato. Sarvesha sarvanamasthane shukareshu numagamah bhavati. Maghava nu tu au. Sudhatham. Nashtapalantasya jhali ityanena nakarasya sthane anuswarah. So you should see that, I mean, even though it is possible to stop here, maghavantau iti jatam, tathapi sutramasti sutrasya pravruttihi bhavatyeva, ashtapadantasya jhali ityanena nakarasya sthane anuswarah kriyate, anuswarah krute anuswarasi i parasavaranah, ityanena parasavarane maghavantau, maghavan maghavantau, maghavantaha. So this is how we would again do. When we go to Sakaranta, Bhagavan, Bhagavanto, Bhagavantaha, evameva. Idanim to atra tuhangaha ityataha etani sutrani vyakshatani rikshate. He maghavan ityataha. Maghavat shabdaha. Suprateha. Supratayasya lopaha halkyadina, sanyogantasya lopaha he maghavan nityasya, sambuddhihi ityataha sarvanamasthane cha sambuddha, upadhadirtha na bhavati. Upadhadirtha will not apply here because it is sambuddhi. He maghavan iti. Sambuddhau upadhadirtha nasti. Maghavantam maghavantau. So for the first five from sutta, suti pare, numagamaha bhavati nakaraha shruyate. Tatah param sakarantaha maghavat as tritram visargaha maghavataha maghavata maghavad bhyam maghavat bhyam itasthite jalam vishwam tetanena jashtve maghavad bhyam maghavat bhyam maghavata maghavad bhyam ityadini rupani. Nakarantah pullingaha maghavan shabdaha tritva pakshe yada sri adesha krataha asmin pakshe evam rupani bhavanti. Sarvanamasthane pare ujidacham sarvanamasthane chadhatohu ityanena numagamaha maghavantau maghavantaha sarvatra nakara shruyate. Sau numagame krute sulopaha sanyoganta lopaha rupani bhavanti. Bahulagrahanat sanyoganta lopasya asiddhatve badhite. Actually sanyoganta lopaha should be asiddha for upadhadirtha. Kintu bahulagrahanat upadhadirtha bhavati maghavan iti rupam. Shasprabhratishu ajadishu kimapi karyam nasti. This is join prakriti and pratyaya. Maghavatu a maghavata. Maghavatu e maghavate. Kavareva. Haladishu tu jashpam bhavati. Maghavad bhyam maghavatitihi ityadi. Supi jashpa chatve. Maghavad maghavat su itasthite. You have to do jashva and then do sattva. Kevalam maghavatsu iti na bhavati. Maghavadu su chalam jashvante punakharicha ityanena sattve maghavatsu. So this is how the shabda, the rupas run when you do maghavabhulam ityanena pradeshe krute evam rupani bhavati. Hi pradeshe akrute kim bhavati. This is prashnaha. Sattva bhave maghava tu ichyate. Rajan shabda tavareva maghavan stu ityastu sarvanamasthane cha sambuddhau ityanena upadhadirthe maghavan stu. So this is originally nakaranta, so there is no question of asiddhatva and all others. Halgyabhyodirthat ityastuttamhala ityanena sulope maghavan nalop pratipadikatmasya ityanena pratipadikasya lop makarasya lokha maghava iti bhavati. So just like you have raja, rajanau, rajanaha, similarly this would be maghava, maghavanau, maghavanaha. सो छंदसी वनिपौ च इति वनिवंतम मध्योदात्तम छंदस्येव. सो ही शोज दैट देयर इज अ डिफरेंस इन स्वरा बिटवीन भगवान. सो देयर इज अ भगवान विच कैन बी डिराइव्ड बाय यूजिंग वनिप छंदसी ई वनिपौ च इति वनिवंतम मध्योदात्तम छंदस्येव. देयर इज अ मध्योदात्त वर्ड भगवान विच इज यूज्ड ओनली इन द छंदस. अन्तोदात्तन्तु लोके अपि देयर इज आल्सो अ वन विच हैज अ एंडिंग उदात्त अन्तोदात्त विच कैन बी यूज्ड इवन इन संस्कृत. सो द स्वरा डिफरेंस मैटर्स ओनली फॉर द वेदा. वेदे मध्योदात्तस्य प्रयोगः लोके अन्तोदात्तस्य प्रयोगः इति. लोके तु अस्माभिः स्वरः न ज्ञायते इत्यतः इट डजंट मैटर टू अस. केवलं रूपाणाम् एव अस्माकं रूपेषु एव अस्माकं प्रवृत्तिः भवितुमर्हति. मघवा मघवानौ मघवानः राजवत् मघवन् शत्वते स्वरे किं भवति इति प्रश्नः. वस्तुतः अल्लोपो नः इत्यनेन अल्लोपः स्यात् किन्तु श्व युव मघोनाम् अतद्भुते इति विशिष्टं सूत्रमस्ति. पदद्वयं श्व युव मघोनाम् अतद्भुते भस्येत्यधिकारः वसोत्सम्प्रसारणम् इत्यतः सम्प्रसारणम् इति अनुवर्तते. लोको नः इत्यतः अनः इति अपकृष्यते. सो अपकर्ष इस् अ टेक्निक् सिमिलर् टु अनुवृत्ति बट् इट् इस् नाट् यूस्ड् एव्रिवेर्. अपकर्ष अनुवृत्तिः नाम पूर्वसूत्रेभ्यः पदानि स्वीक्रियन्ते. अपकर्षः नाम उत्तरसूत्रेभ्यः पदानि स्वीक्रियन्ते. Sometimes some words are borrowed from sutras which follow. So apakarsha is not a natural process. Yatra vyakhyakarena bhashyakarena va uchyate tatraiva apakarsha kriyate. Atra allokonaha iti agrima sutra. Ayam susadhyayate chatuttha pade trayastrimshattamam idam sutram. Chatuttrimshattamam bhavati allokonaha. Tataha anaha iti apakrishyate. That is taken back from the next sutra. अत्र इष्यते इट् इस् रिक्वैर्ड् इन् द सूत्र. सो इट् इस् टेकन् फ्रोम् द नेक्स्ट् वन्. अन्वन्तानां भसंयतानाम् एषाम् अतद्धिते परे सम्प्रसारणस्य सम्प्रसारणविधायकम् इदं सूत्रं. सम्प्रसारणम् इति अनुवर्तते भस्य इत्यपि अनुवर्तते. भसंयतस्य भसंयतानाम् एषां सम्प्रसारणं भवति अतद्धिते परे कथितप्रत्यये परे न भवति. अन्नन्तानां सो दे शुड् बि अन्नन्ता वन् युवन् मघवन् इति अन्नन्तानाम् एतेषां भवति. मघवन् अस् इत्यस्ति अन्नन्तः मघवन् शब्दः. शत्प्रत्यये परे यशिभम् इत्यनेन भसंज्ञा अस्ति. शत्प्रत्ययः न बद्धितः अतः अत्र श्रयुव मघोनाम् अतद्धिते इत्यनेन सम्प्रसारणं भवति. किं नाम सम्प्रसारणम्? इग्यणसम्प्रसारणम्. यणः स्थाने इग् वर्णः भवति चेत् तत्र सम्प्रसारणम् इति नाम. सो द यण् हियर् इस् ओन्लि वन् विच् इस् अवकार. अवकारस्य स्थाने सम्प्रसारणम् इति चेत् स्थानसाम्यात् उकार एव भवति. सो अवकारस्य स्थाने सम्प्रसारणम् उकारः. मघ उ अन् अस्ति. सो व इस् रिप्लेस्ड् बै ह् इस् रिप्लेस्ड् बै उ. सम्प्रसारणे कृते लक्षणमेव सम्प्रसारणाच्च इत्यनेन पूर्वरूपं करणीयं भवति. मघ उन् अस्त् इति जातम्. आद्गुणः इत्यनेन गुणे कृते मघोनस् कृत्वं विसर्गः मघोनः. मघवन्तं मघवन्तौ सोरि मघवानं मघवानौ नकारान्तस्य रूपाणि मघवानं मघवानौ मघोनः इति भवति. मघोना मघवभ्याम् तृतीयायां पुनस्तदेव. सो मघवन् आ इत्यस्ति सम्प्रसारणं पूर्वरूपम्. आद्गुणः इत्यनेन गुणे मघोना मघवन् भ्याम् फलादिषु प्रत्ययेषु परेषु अलोकप्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपः. मघवभ्याम् इत्यादि अन्नन्तानां किम् विशिष्य अपकृष्य अन् इति विशेषणं दत्तम्. अन्नन्तानाम् एतेषाम् इति किमर्थम इति चेत् मघवतः मघवता इफ इट इज तकारांत वेयर द अन हैज बीन रिप्लेस्ड बाय तु तृ इत्यादेश कृतः किन्तु वस्तुतः सोपि मघवान् मघवन् शब्द एव किल तत्र भवति वा इति चेत् न भवति कुतो न भवति अन्नन्तानां निर्देश दट इज वै वी टेक अन्नन्त सो वेन ओनली वेन इट एंड्स विथ अन्न देन वी हैव संप्रसारण तृ आदेशे कृते संप्रसारणं न भवति मघवतः मघवता इत्यादीनि रूपाणि स्त्रियां मघवती सो द तकारांत व्हेन इट इज गेट स्त्रीलिंग देयर आल्सो देयर इज नो संप्रसारण इट इज मघवती ऑन द अदर हैंड इफ द नकारांत हैड अ स्त्रीलिंग फॉर्म आई मीन नॉट इफ द स्त्रीलिंग फॉर्म ऑफ द नकारांत विल गेट संप्रसारण इट विल बी मघोनी मघवा मघोनी इति भवति तकारांतस्य तु मघवान् मघवती इति भवति अतद्यते किम् सूत्रे एव उच्यते श्वयुवमघोनाम् अतद्धिते तद्धितप्रत्यये परे न भवति किमर्थं माघवनम् इति उदाहरणं दीयते मघवा अस्य देवता इत्यर्थे अस्य देवता इति सूत्रात् अण् प्रत्ययः क्रियते मघवन् एण्ड् अ सो तत्रापि भसंज्ञा अस्ति अच्छ अजादिः विभक्ति अजादिः प्रत्ययः इत्यतः भसंज्ञा अस्ति तथापि अण् प्रत्ययः तद्धितः इत्यतः अल्पसारणं न भवति यजस्व मघवन् अ आदिवृद्धौ माघवन माघवनम् इति भवति तद्धिते परे सम्प्रसारणं नास्ति सकारान्तस्य मघवन् शब्दस्य सम्प्रसारणं नास्ति मकारान्तःपुल्लिङ्गः मघवन् शब्दः तृत्वाभावे तृत्वपक्षे कानि रूपाणि इति दृष्टानि तृत्वस्य अभावे मकारान्ते एव कानि रूपाणि चेत् सुति राजवद् रूपाणि फस्ट् फ्यू थिङ्ग्स् इट् इस् लैक् राजन् विशेषः नास्ति तत्प्रभृतिषु अजादिषु सम्प्रसारणं भवति श्वयुवमघो नाम तद्धिते इत्यनेन सम्प्रसारणे मघोनः मघोना मघोने इत्यादीनि रूपाणि शत्रुभृतिषु हनादिषु न लोपः लैक् राजन् सो द ओन्लि विशेष फार् द नकारान्त पार्ट् आफ् इट् इस् सम्प्रसारण बट् अदर् विशेष इस् आल्सो दट् इट् हेस् अ पकारान्त पार्ट् इट् इस् कम्प्लीट्लि न्यू बिकास् वी हेव् नाट् इट् डेल्ट् वित् तकार युवमघोनाम् इति उच्यते अग्रे मकारान्तस्त्रीलिङ्गः श्वन् शब्दः इति राजवत् राजशब्दवद् रूपाणि फैनिशियलि दर्शनं रूपाणि श्वा श्वानौ श्वानः राजा राजानौ राजानः इति उपधादीर्घः अस्ति श्वा श्वानौ श्वानः नो चेत् अकारान्तः पुल्लिङ्गः श्वानशब्दः अपि अस्ति रामशब्दवत् श्वानः श्वानौ श्वानाः नकारान्तमपि अस्ति श्वाश्वानौ श्वानः इति काव्येषु तु नकारान्तस्यैव प्रयोगः अधिकः दृश्यते श्वानः इत्यस्ति चेत् बहुवचनमपि भवितुमर्हति एकवचनमपि भवितुमर्हति तश्शब्दः इति द्रष्टव्यम् श्वन् अस्ति शस्त्रस्य परे सम्प्रसारणं श्वयुवमघोनाम् अतर्पते अत्रापि एकमेव यण्णस्य वकारः वकारस्य स्थाने उकारः शु उ अन् अस् सम्प्रसारणाच्च इति पूर्वरूपे शुन् अस् इत्यस्ति ऋत्वविसर्गयोः कृतयोः ऋत्वे विसर्गेति कृते शुनः श्वा श्वानौ श्वानः श्वानं श्वानौ शुनः शुना श्वभ्याम इत्यादि सो अजादिषु प्रत्ययेषु सम्प्रसारणं भवति अनादिषु प्रत्ययेषु नकारस्य लोपः श्मन् भ्याम श्वभ्याम पुनः तथैव यथा अभवन् शब्दः तथैव कोऽपि विशेषः नास्ति अब्सल्यूटलि नो डिफरेंस बिटवीन द नकारांत अभवन् शब्द एंड श्वन् शब्द आदौ राजवद्रूपाणि अजादिषु प्रत्ययेषु सम्प्रसारणम् शुना शुने शुनः शुनोः शुनां शुनि शुनोः इत्यादि हलादिषु मकारस्य श्वभ्यां श्वभिः इत्यादि शुनः पुच्छम् शुनश्चेपः इत्यत्रापि श्वन् शब्दः बहुत्र उपयुज्यते श्वन् श्व युव मघोना श्वन् शब्दः अधीतः मघवन् शब्दः मध्ये युवन् शब्दः अस्ति अकारान्तः पुल्लिङ्गः युवन् शब्दः अगेन् श्रुति राजवद्रूपाणि युवा युवानौ युवानः युवानं युवानौ युवन् शब्दे वस्य उत्वे कृते अतः युवन् अस् इत्यस्ति श्रयुवमघोना मतुद्धिते इत्यनेन वकारस्य स्थाने सम्प्रसारणं कुर्मः उकारस्य सम्प्रसारणं भवति सो यु उ अन् इति सम्प्रसारणाश्च इति पूर्वरूपे यु उन् अस् इदानीं प्रश्नः यकारस्यापि सम्प्रसारणं कर्तुं शक्यते वा इति सम्प्रसारण फर् व बट् य इस् आल्सो ए यण् देर् आर् टु यण् लेटर्स् इन् द वर्ड् So in the others, Shvan or Maghavan, there is no problem because there is a single yan letter. Here we have two. Yakaraha api yan varnaha, vakaraha api yan varnaha. So vakarasya samprasaranam krutam, yakarasya api samprasaranam karpum shakyateva. Iti prashna. Tada uchyate, na samprasarane samprasaranam. Very simple. Padatrayam. Samprasarane parapaha, purvasyayaha samprasaranam na bhavati. So when followed by a samprasarana, the earlier yan will not get samprasarana. Only one will get samprasarana. Iti yakarasya na utvam. That is why the yakara of human will not get ikaradisha. Will not get samprasarana. Ateva jyapakar antyasaya na purvam samprasarana. So the question will be, okay, if you do samprasarana for the second yan first, then संप्रसारणे परे संप्रसारणं भवति वै शुड् ऐ नाट् डू संप्रसारण फार् यकार फस्ट् यकारस्यैव पूर्वं संप्रसारणं कुर्मः ततः वकारस्य कुर्मः केन् यु डू इट् फार् यकार एण्ड् देन् फार् वकार इति न अत एव ज्ञापकार सूत्र दिस् सूत्र इट्सेल्फ् टेल्स् अस् दट् अन्त्यस्य यणः पूर्वं संप्रसारणं द लास्ट् एण्ड् इट्स् देर् आर् त्री आर् फोर् एण्ड् आल्सो फैनल् एण्ड् विल् गेट् फस्ट् संप्रसारण and the others will not get by this sutra. Because otherwise this sutra would be a waste. Yadi purvam prathamayana kriyate, tatah dvitiyayana kriyate, tadhi asya sutra si kim prayodhanam siya. Adu anjasya yanaha samprasaranam kriyate, tatah anyesham yanam samprasaranam na bhavati. Ekasmin pade etasyeva samprasaranam bhavati. So you un vakarasya samprasaranam in us समर्णदीभे यूनः उत्तरसर्गयोः यूनः युवा युवानौ युवानः युवानं युवाणौ यूनः यूना युवभ्याम् इत्यादि फैनली श्वन् युवन् मघवन् आर् ऐडेण्टिकल् अडिशनल् क्वश्चन् हियर् केन् यु डू सम्प्रसारण पर्यकार सदिषु सम्प्रसारणे यूना यूने इत्यादि कलादिषु ఆప్తికారం గురసిం అష్టకారం పతంజలి పాణిని సూత్రకారంత అనకోసం నిత్రయం నిత్రయం నమస్కృత్య చతుర్థీ హరిహాస్య యజ్ఞాపాన సిద్ధాంత పక్షం గురస్యతే